एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा प्रधानमन्त्री केपी शर्मा ओली विद्यमान स्थितेः परिवर्तनत्वेन परिवर्तनस्य जनेषु अनुभावनत्वेन च कार्यं विधातुं मन्त्रिणः सचिवांश निर्देशति सिंहप्रसादवर्तिनी प्रधानमन्त्री मन्त्री परिषदः कार्यालये ह्यः उपविष्टे वर्तमान आर्थिक वर्षस्य नीति कार्यक्रमाणाम् आयव्ययकस्य च प्रथम त्रैमासिक समीक्षोपवेशे प्रधानमन्त्री ओली नागरिकाणां जनजीवनं सहजं विधातुं वर्तमान कार्यशैल्यां परिवर्तनम् आवश्यकमस्ति इति अभाषत वर्तमान आर्थिक वर्षस्य आयव्ययके कतिपयानां योजनानां कार्यक्रमाणां च स्रोतसां सुनिश्चिततां विनैव समावेशनात् कार्यं कर्तुं काठिन्यमस्तीति चर्चयन् प्रधानमन्त्री ओली आवश्यकतायां सत्याम् आयव्ययकस्य समीक्षयापि विधातुं शक्यते इति प्रावोचत् प्रधानमन्त्री ओली आयव्ययकस्य कार्यक्रमाणां च विसंगतिं व्यवस्थापयितुं सर्वकारस्य समयः व्यतीतोऽस्तीति चर्चयन् पूर्ववर्तिनः सर्वकारेण आनीतस्य वर्तमानार्थिक वर्षस्य आयव्ययके समाहिताः कृत्रिमः आयोजनाः स्वल्पवित्तस्य बहुवर्षीयः आयोजनाश्च अग्रेसारयितुं न शक्यन्ते इति अवदत् उपवेशे सहभागिभिः विभिन्नैः विभागीय मन्त्रिभिः सचिवैश्च कर्मचारिणां क्षीयमाणस्य मनोबलस्य विभिन्नानां मन्त्रालयानां सम्बद्धानां निकायानां च समन्वयाभावस्य न्यूनस्रोत साधनानां च कारणेन लक्ष्यानुसारेण कार्यसम्पादनं विधातुं न शक्तमस्ति इति उक्तवन्तः उपवेशे प्रधानमन्त्री उपप्रधानमन्त्रिणौ मन्त्रिणः मुख्यसचिवः विभिन्नानां मन्त्रालयानां सचिवः निवेश समितिः राष्ट्रिय योजना आयोगस्य च पदाधिकारिणश्च सहभागिनः आसन् प्रधानमन्त्री केपी शर्मा ओली भाषते जनसंख्यायाः विषयः सामाजिक आर्थिक राजनीतिक रणनीतिः दृष्ट्या अवलोकनीयः षष्ठस्य ऐसैक जनसंख्या सम्मेलनस्य ह्य काष्ठमण्डपे उद्घाटनं विदधानः प्रधानमन्त्री ओली सर्वकारेण सीमान्तकृतानां विपन्न समुदायानां च उत्थानाय प्रभावपूर्णः प्रयासः विधीयमानः सन्ति इति अगदत् प्रधानमन्त्री ओली समानतां समावेशिनीं च नीतिम् अवलम्ब्य सम्पन्नानां विपन्नानां च मध्ये विद्यमानम् अन्तरं समापयितुम् आत्मसम्मानेन सहितस्य मानवाधिकारयुतस्य विश्वस्य निर्माणार्थं सर्वै एकीभवनाय बलं प्रादात् प्रधानमन्त्री केपी शर्मा ओली स्वस्य ऐतिहासिक वैशिष्ट्य युता निवार संस्कृति अन्याभ्य संस्कृतिभ्य पृथग् अस्तित्यतः सर्वैर्मिलित्वा एतस्याः संरक्षणाय बलं ददाति एकविंशतितमस्य राष्ट्रिय जापदिवसस्य अवसरे आयोक्ष्यमाणस्य समारोहस्य निमन्त्रणं प्रदातुं सवाद्यवादनैः बालुवाटारवर्तिनं प्रधानमन्त्री निवासं प्राप्तैः ज्यापु संस्कृति विकास कोषस्य पदाधिकारिभिस्सह विहिते विमर्शने प्रधानमन्त्री ओली नेवार समुदाये प्रचलिता वाद्यवादन यन्त्रसहितायाः निमन्त्रणायाः संस्कृतिः पृथक् परिचययुता वर्तते इति प्रावोचत् नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा युनः विदेश पलायनात् रोद्धुम ऐसैक राष्ट्राणां संयुक्तावधारणया सहितस्य व्यवस्थापनस्य आवश्यकतां दर्शयति षष्ठ ऐसैक जनसंख्या सम्मेलनस्य उद्घाटन समारोहं पूर्वेद्युः काष्ठमण्डपे सम्बोधयन् सभापतिः देउवा सम्प्रति युना विदेश पलायनात् रोदनं समाहूयपूर्ण विषयः सम्भूतोऽस्तीति चर्चयन् आवश्यकतानुसारेण युवसु उद्यमशीलतायाम् असंयोजितेषु सत्सु अतिरिक्तयूनां विदेश पलायन क्रमः वर्धते इति अवोचत् राष्ट्रपतिः रामचन्द्र पौडेलः नेपाली चलचित्रं नेपालस्य पर्यटनोद्योग क्षेत्रेण सह संयोज्य कार्यं विधातुं कलाकर्मिणः अनुरुणद्धि चलचित्र विकास समित्या ह्य शीतल निवासवर्तिनी राष्ट्रपति कार्यालये आयोजितं गतविक्रमवर्षीय राष्ट्रिय चलचित्र पुरस्कार प्रदान कार्यक्रमं दीर्घ साधना सम्मान कार्यक्रमं च सम्बोधयन् राष्ट्रपतिः पौडेलः चलचित्र क्षेत्रस्य विकासात् नेपालस्य समृद्धिर्यात्रायां नेपाल सर्वकारेण आवश्यक नीति नियमेन सह पूर्वाधारश्रोत साधनानि संकलयितुं सहयोगो प्रापयते इति विश्वासम् व्यक्तवान्। राष्ट्रपतिः पौडेलः विपुल विषयवस्तूनाम् अपेक्षया ग्रामीण समाजेषु दृष्टाः लघु मौलिक कथाः चरित्राणि च प्रस्तुत्य नेपाली भाषा संस्कृतेः परम्परायाश्च संरक्षणाय नेपाली चलचित्रोद्योगेन अतिरिक्तः श्रमः करिष्यते इति अपेक्षत। कार्यक्रमे संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरुङ समृद्धो नेपालः सुखिनो नेपालिनश्चेति अभियाने चलचित्र क्षेत्रस्य महत्वपूर्णस्य अंगस्य सम्पादनत्वेन सर्वकारः प्रयासरतोऽस्तीत्यतः तत्र सहयोक्तुं सर्वान् सम्बद्ध पक्षान् अनुरुणत्। कार्यक्रमे चलचित्र विकास समितेः अध्यक्ष दिनेश जीशी चलचित्र क्षेत्रस्य समग्र विकासाय नूतन चलचित्रम् आनेतुं सर्वकारस्य ध्यानाकर्षणं व्यधात्। तदवसरे राष्ट्रपतिना पौडेलेन दीर्घ साधना सम्मानेन वरिष्ठाभिनेत्री चैत्यदेवी सिंह सम्मानिता आसीत्। दीर्घ साधना सम्मानस्य पुरस्कार वित्त राशिः लक्षत्रयं 75,000 च वर्तन्ते। तदवसरे चलचित्र विशेष योगदान सम्मानेन विशेष चलचित्र पुरस्कारेण विभिन्नानि चलचित्राणि चलचित्रकर्मिणश्च सम्मानिताः आसन्। परराष्ट्र मन्त्री डाक्टर आरजु राणा देउवा चीनदेशीय विदेश मन्त्रिणः वांग यी इत्यस्य मैत्रीपूर्णायां निमन्त्रणायां चीनदेशस्य भ्रमणाय अद्य प्रतिष्ठते। चीनदेशीय साम्यवादी दलस्य केन्द्रीय समितेः राजनीतिक निकायस्य सदस्यस्य विदेश सम्बद्धस्य केन्द्रीयायोगस्य कार्यालयस्य निर्देशकस्य च वांग इत्यस्य निमन्त्रणायां मन्त्री राणा अद्यतः 15 दिवसं यावत् चीनदेशस्य भ्रमणं करिष्यति। भ्रमणस्य क्रमे परराष्ट्रमन्त्रिणा डाक्टर राणा इत्यनया श्व विदेश मन्त्रिणा वांग इत्यनेन सह द्विपक्षीया वार्ता करिष्यते। मेलनावसरे अनयोर्मध्ये प्रधानमन्त्रिणः केपी शर्मा ओलिनः आसन्न चीनदेशस्य औपचारिकस्य भ्रमणस्य पूर्वकार्यस्य विषये द्वयोः देशयोः पारस्परिकहितस्य विविधेषु विषयेषु च विमृक्ष्यते इति ज्ञापितमस्ति। परराष्ट्रमन्त्री डाक्टर राणा अस्यैव मार्गशीर्ष मासस्य 15 दिवसे स्वदेशं प्रत्यागमिष्यति। स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेलः निगदति चिकित्सालयानां शय्यानाम् अपेक्षया सेवायाः आधारेण वर्गीकरणं विधातव्यम्। नेपाली कांग्रेस दलस्य नेतुः स्वर्गीयस्य बलबहादुर श्रेष्ठस्य द्वादशस्य स्मृतिदिवसस्य अवसरे ह्यः काष्ठमण्डपे आयोजिते कार्यक्रमे मन्त्री पौडेलः सेवामाधृत्य चिकित्सालयानां वर्गीकरणं विधेयं तेन च चिकित्सालयानां सेवा महत्वपूर्णा नागरिकमैत्रीयुता भविष्यतीति विश्वासम् अभिव्यनत्। स्वास्थ्य जनसंख्या मन्त्रालयेन सहकार्यस्य प्रवर्धनस्य ज्ञानादान प्रदानयोः स्वास्थ्य क्षेत्रेषु विद्यमानानां काठिन्यानां परिहरणस्य च कृते आगामिनः पौषमासस्य 11-12 दिवसयोः काष्ठमण्डपे नेपाल स्वास्थ्य सम्मेलनम् आयोक्ष्यते इति समाचारः।